ॐ सोमानौ स्वराणम् कृणुहि ब्रह्मणस्पते चक्षीवन्तम् य औषिजः यो रेवान् यो ओमीवहावो सुवित्पुष्टिवरधनः स नस्य शक्तु यस्तुरः मानशंसो अरोरुषो धूर्त्यः प्रणम् मर्त्यस्य रक्षाणो ब्रह्मणस्पते सघा वीरो नरिष्यति यमिन्द्रो ब्रह्मणस्पतीः सोमो हि नोति मर्त्यम् त्वन्तम् ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् दक्षिणापात्वम् वासः उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वे महे उपप्रयन्तु मरुतस्तु दानव इन्द्रप्राशूर्भवास च त्वाम् विद्धि सहसस्पुत्रमर्त्य उपब्रूते धने हिते सुवीर्यम् मरुत आश्वस्व्यन्दधीतयो व आचके प्रयितो ब्रह्मणस्पतिः प्रदेव्येतु सुदृता अच्छावीरन्नर्यम् पङ्क्तिराधसन् देवा यज्ञम् नायन्तु नः यो वाघते ददाति सूनरम् वसुसरत्ते अक्षीति श्रवाः तस्मा इळाम् सुवीरामाय जामहे सुप्रतूर्तिमनेहसम् प्रनूनम् ब्रह्मणस्पतिर्मन्त्रम् वरत्योक्थियम् यस्मिन्निन्द्रो वरुणो मित्रो अरीयमा देवा ओकांसि चक्रिरे तमिद्वोचे मा विरतेषु शम्भुवम् मन्त्रम् देवा अनेहसम् इमाम् च वाचम् प्रतिहर्यथा नरो विश्वे द्वामावो अश्नवत् को देवयन्तमश्नवज्जनम् को वृक्तबर्हिषम् प्रप्रदाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयन्दधे उपक्षत्रम् विञ्चितहन्ति राजभिर्भये चित्सुक्षितिन्दधे नास्य वर्ता न तरुतामहाधनेनार्भे अस्ति वज्रिणाः गणानाम् त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नूतिभिस्थिरसादनम् देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् मागमानशुः उस्रा इव सूर्यो ज्योतिषामहो विश्वेषामिज्जनिता ब्रह्मणामसि आविबाध्या परिरापस्तमांसि च ज्योतिष्मन्तम् व्रतमृतस्य तिष्ठसि बृहस्पते भीमम मित्रदम्बनम् रक्षोहणम् गोत्रभिदम् स्वर्विदम् सुनीतिवृन्दयसित्राय से जनैयस्तु भियन्दाशान्नतमम् वो अश्नवत् ब्रह्मद्विषस्तप न मन्युमीरसि बृहस्पते महितत्ते महित्वरम् न तमम् वो न दूरितम् कुतश्च न नारातयस्तितिरुर्नद्वयाविनाः विश्व इदस्माध्वरसो विवारसेयम् सु गोपारक्षसि ब्रह्मणस्पते त्वन्नो गोपाः पोथिकृथिवी चक्षणस्तवौ व्रताय मतिभिर्जरामहे बृहस्पते यो नो अभिवरोदरे स्वातम् मर्तु दुक्षुनारस्वती उत वा यो नो मर्कयादनागसो रातीवा मर्तः सानुको वृकाः बृहस्पते अपतम् वर्तयापथः सुगन्धो अस्यै देववीतये कृधि त्रातारम् त्वा तनूनाम् भवामहे वस्परतरधिवक्तारमस्मयुम् बृहस्पते देवनिदो निबर्हय माधुरेव उत्तरम् सुम्नमुन्नाशन् त्वया वयम् सुवृधा ब्रह्मणस्पते स्पार्हावसु मनुष्यादधीमहि या नो दूरे तडितो या अरातयोऽपि सन्ति जम्बयाता नपनसाः त्वया वयमुत्तमम् धीमहे वयो बृहस्पते पप्रीणा सस्नीनायुजा मानो दुःशंसो अभिदिप्स्वरी शतप्रसुशंसा मतिभिस्तारिषीमहि अनानुदो वृषभो जगमीराहवन्निष्टप्ता शत्रुं मृतनाशुसासहिः असि सत्यरुणया ब्रह्मणस्पत उग्रस्य चिद्दमितावीर्हर्षिणाः अदेवेन मनसायोरीषण्यतीशा सामुग्रो मन्यमानो जिगांसति बृहस्पते मा प्रणक्तस्य नो वधो निकरम् ममन्युञ्जुरेवस्य शरथतः भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनीता धनन्दनम् विश्वा इदर्यो अभिदिप्स्वो मृतो बृहस्पतिर्विवरहारथाम् इव ते ज्येष्ठया तपनी रक्षसस्तपये त्वा निदेदधिरे दृष्टवीर्यम् आविस्तत्कृष्वैरसत्तोक्तियाम् बृहस्पते विपरिरापो अर्दया बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतोमज्जनेषु यद्दीरयच्छवो स ऋतप्रजात तदस्मा सुद्रवीणन्धेहि चित्रम् मानस्तेनेभ्यो ये अभिद्रुहस्पदे नीरामिणोरिपवोऽन्येषु जागृधु आदेवानामोहते विव्रयोरिति बृहस्पतेन परः साम्नो विदुः विश्वेभ्यो हित्वा भुवनेभ्यः परित्वष्टा जनत्साम्नः साम्नः कविः स ऋणचिद्रोणया ब्रह्मणस्पतिर्द्रुहो हन्तामहृतस्य धर्तरि तव श्रिये व्यजिहीत पर्वतो गवाङ्गोत्रमुदश्रोजो यदङ्गिरः इन्द्रेण युजातमासा परीवृतम् बृहस्पते निरपामौब्जो अर्णवम् ब्रह्मणस्पते त्वमस्ययन्ता सूक्तस्य बोधितनायम् च जिन्वा विश्वन्तरभद्रञ्जरवन्ति देवा बृहद्वदेमविरथे सुवीराः से मामवृद्धि प्रवृति य ईशीषे या वीधेम नवो या महागिरा यथा नो मीढ्वान्स्तव ते सखा तव बृहस्पते शीषादस्तोतरो मतिम् यो नन्त्वान्यनमन्यो जसोतादरदरमन्युना शम्बराणि प्राच्या वयदच्युता ब्रह्मणस्पतिराचाविशद्वसुमन्तम् व्यपरवतम् तद्देवानाम् देवत मायकर्त्वमश्रत्नम् दृढाव्रदन्तवीळिता उद्गाजदभिनद् ब्रह्मणावलमगूहत्तमो व्यचक्षयत् स्वाहा अस्मास्यमवतम् ब्रह्मणस्पतिर्मधुधारमभियमोजसा तृणत् तमेव विश्वे पपिरे स्वर्दृशो बहुसाकंसीसिजुरुत्समुदृणम् सनाता काचिद्भुवना भवीत्वामाद्विष्टरद्भिर्दुरो वरन्तवः अयतन्ताचरतो अन्यदन्यदितियाचकार वयुना ब्रह्मणस्पतीः अभिनक्षन्तो अभियेतमानशुरनिधिम् पाणिनाम् पारमङ्गुहाहितम् ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्त दुदीयुराविशम् ऋतावानः प्रतिचक्ष्यानृता पुनरात आतस्थुः कवयो महस्पथः ते बाहुभ्यान्तमितमग्निमश्मानि न कृष्णो अस्त्यरोणो जहुर्हितम् ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्ट्यप्रतदश्नोति धनवना तस्य साध्वीर्षवो याभिरस्य दिदृचक्षसोदृशये कर्णयोनयः ससन्नयस्य वीनयः पुरोहीतस्य सुष्टूतस्य युधि ब्रह्मणस्पतीः चाक्ष्मो यद्वाजम् भरते मतीधनादित्सूर्यस्तपति तप्यतुर्वृथा विभुप्रभु प्रथमम् मेहनावतो बृहस्पते स्विरत्राणिराध्या इमासा तानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशाः यो वरे वृजने विश्वथा विवर्महामूरणवस्व सावक्षीथा स देवो देवान् प्रति पप्रथे पृथु विश्वे दुता परिभूर्ब्रह्मणस्पतिः विश्वं सत्यं माघवानायुवोरितापश्चन प्रमेनन्त्यव्रतं वाम् अच्छेन्द्रा ब्रह्मणस्पतिहविर्नो नञ्युजेव वाजिनाजिदातम् उताशिष्ठा अनुशृण्वन्त्य वह्नाय सवे यो विप्रो भरते मतीधना वीणुद्वेषा अनुवश अर्णमातदिस्सवाजी समिथे ब्रह्मणस्पतिः ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्माकरिष्यतः योगा उदाजत्सति वेविचा भजन्महीव रीतिश्चव सासरत्पृथग ब्रह्मणस्पते स्वयमस्य विश्वहारायस्यामरस्यो वयस्वतः वीरेषु वीराम् उपबृम्नस्त्वञ्जरीशानो ब्रह्मणावेशी मे हवम् ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधितनायम् च जिन्वा विश्वन्तर्भद्रञ्जरवन्त्य देवा बृहद्वरेमविरथे सुवीराः इन्धानो अग्निम् वनवद्वनुष्यतः कृतब्रह्मा शूषुवद्रातः ऊय इत जातेन जातमतिसप्रसरसृते यञ्जयुजम् कृणुते ब्रह्मणस्पतिः वीरेभिर्वीरान् वनवद्वनुष्यतो गोभीरयम् पप्रथद्बोधतित्मना तोकम् च तस्य तनायम् च वर्धते यञ्जयुजम् कृणुते ब्रह्मणस्पतिः सिन्धुरनक्षोदश्मीवाम् मृगायतो वृषेव वध्रीयरभिवष्टोजसा अग्नेरीव प्रसीतिर्नाहवर्तवे यञ्जयुजम् कृणुते ब्रह्मणस्पतिः तस्मा अर्षन्ति दिव्या असश्चतस्तसत्त्वभ्यः प्रथमो गोषो गच्छति अनीभृष्टतविडर्हन्त्योजसायञ्जयुजम् कृणुते ब्रह्मणस्पतिः तस्मा इति विश्वे धुनयन्तसिन्धवोच्छिद्राशर्मादधिरे पुरूणि देवानाम् सुम्ने सुभगस्येधते यञ्जयुजम् कृणुते ब्रह्मणस्पतिः ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् सुप्रावीरिद्वनवत्पृत्सु दुष्टरञ्यजिवेत यजियो विभजाति भोजनम् यजस्ववीरप्रवीहिमनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये हविष्कृणुष्व सुभगो यथा सस्य ब्रह्मणस्पतेरव आवृणीमहे स इज्जने न स विशास जन्मना स पुत्रैर्वाजम् भरतेर्नादृभिः देवानाम् यः पितरमाविवासति श्रद्धामनाः विषा ब्रह्मणस्पतिम् यो अस्मै हव्यैर्घृतवद्भिरवीरद्वतम् प्राचानायते ब्रह्मणस्पतिः उरुष्यतीमम् वसो रक्षतीरुषो वोष्टिरस्मा उरुचकृरद्भूतः तमुज्येष्ठन्नमासा हविर्भिस्तुषेवम् ब्रह्मणस्पतिम् वृणीषे इन्द्रौ श्लोको महिदैव्यस्तु शक्तियो ब्रह्मणो देवकृतस्य राजा इयम् वाम् ब्रह्मणस्पदे सुभृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि अवेष्टम् द्यो जिघृतम् पुरन्धीर्यजस्तमर्यो मनुषामरातीः चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी हरायम् ब्रह्मणस्पते तीक्ष्णशृङ्गो दृषन्दीः अदो यद्दारुप्लवते सिन्धो पारे अपूरुषम् तदारभस्वदुर्हणो तेन गच्छ परस्तरम् अग्निर्येन विराजति सूर्यो येन विराजति विराजेन विराजति तेनास्मान् ब्रह्मणस्पते विराजसमिदम् कुरु।